इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। लोकसभायां ह्यः उरुरात्रं यावत् 20-26 संविधानविधेयकस्य एकत्रिंशदधिकैकशततमे संशोधने 20-26 परिसीमन विधेयके 20-26 केन्द्रशासित प्रदेश विधेयके च चर्चा जाता। एतेषां तिस्रीणां विधेयकानाम् उद्देश्यं लोकसभायां राज्याणां केन्द्रशासित प्रदेशानां च विधानसभासु महिलानां सहभागितायाः वर्धनम् अस्ति। 20-23 संविधान अधिनियमस्य 6-100 संशोधने यत् नारी शक्ति वंदन अधिनियमेनापि अभिधीयते, लोकसभायां विधानसभासु च महिलाभ्यः प्रायः 1/3 आसनानाम् आरक्षणस्य प्रावधानं जातम्। नारी शक्ति वंदन अधिनियमं लोकतांत्रिक राजनीतौ महिलानाम् अधिकाधिकं सहभागित्वं सुनिश्चेतुमासीत्। एतानि त्रीणि विधेयकानि क्षेत्रीय निर्वाचन क्षेत्राणां परिसीमां सौविध्यपूर्ण कर्तुं लोकसभायां विधानसभासु च महिलाभ्यः 1/3 आसनानाम् आरक्षणस्य प्रावधानानां कार्यान्वयनाय च सन्ति। सिक्किम राज्ये नारी शक्ति वंदन अधिनियम महिला सभा अद्य प्रातः गंगटोक नगरे आयोजयिष्यते। अस्याः आयोजनं राज्यस्य प्रमुख महिलाभिः प्रधानमन्त्रिणं नरेन्द्र मोदिनं प्रति कृतज्ञतां प्रकटयितुं भवति। इयं सभा देवराली इत्येतस्मात् स्थलात् आरभ्य पलजोर प्रांगणात् यावत् प्रचलिष्यति। राज्यस्य नैकाः प्रमुख महिलाः अद्य अस्यां सभायां भागं ग्रहीष्यन्ति इति आशास्यते। प्रधानमन्त्री नरेन्द्र मोदी ह्यः नवदिल्ल्यां ऑस्ट्रिया देशस्य चांसलर इति पदासीनेन डॉक्टर क्रिश्चियन स्टॉकर इत्यनेन सह संवादं कृतवान्। उपवेशनावधौ भारताष्ट्रिया देशयोः मध्ये खाद्य सुरक्षायां एकं सहमति ज्ञापनं, सैन्य प्रकरणेषु सहयोगे एकं आशयपत्रम्, आतंकवाद विरुद्ध्य संयुक्त कार्यसमूहे एकं आशयपत्रं च समेत्य नैकासां सहमति पत्राणाम् आदान प्रदानं जातम्। संयुक्त वार्ताहर सम्मेलनं संबोधयन् प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् भारताश्रिया देशौ आधारभूत संरचनायां नवाचारे स्थिरतायाञ्च क्षेत्रे विश्वसनीय सहभागिनौ स्तः। वाणिज्योद्योग मंत्री पीयूष गोयलः ह्यः दक्षिण कोरिया देशस्य व्यापार मंत्रिणा यो हांकू इत्येतेन सह आभासीय माध्यमेन उपवेशनम् अकरोत्। सामाजिक संचार पटले एकस्मिन् संदेशे गोयलः कथितवान् यत् उपवेशनावधौ द्वौ नेतारौ भारत दक्षिण कोरिया देशयोर्मध्ये द्विपाक्षिकार्थिक सहयोगं सुदृढीकरणे चर्चां कृतवन्तौ। अमेरिकायाः राष्ट्रपतिः डोनाल्ड ट्रम्प प्रतिपादितवान् यत् ईरान स्वस्य संवर्धितं यूरेनियम धातुं प्रदातुं सज्जः अस्ति, यस्य प्रयोगः परमाणु शस्त्र निर्माणार्थं भवति स्म। ट्रम्प व्हाइट हाउस इत्यत्र वार्ताहरान् संसूचयन् अवदत् यत् द्वौ देशौ शान्तिसन्धेः समीपौ स्तः। आईपीएल इति क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ मुम्बय्याः वानखेड़े क्रीडांगणे पंजाब किंग्स दलेन मुम्बई इंडियंस दलं 7 स्तोभैः पराजितम् इति वार्ताः।